पापयन्द्रम् कृमिम् यथा वाजयन्तः सदक्रातुम् मम निष्ठम् सिञ्चयिन्दूभिः सरम् वायस्वीनाम् सहस्रम् भासमाशिरा निम्नम् नरीयते संयन्मदाय सुष्मिणा येना ह्यस्योदरे समुद्रोरण्यशो दधे अयमूते समादसि कपोदा इव गर्भधिम् वदस्तश्चिन्नवोहसे स्तोत्रम् राधानाम् पदे गिर्वाहो वीरजस्य ते विभूतिरस्तु सुहृदा गोध्वस्तिष्ठा न भूतयेऽस्मिन् वाजे सदक्रतो समन्ये शुभ्रवावहै योगे योगे तमस्तरम् वाजे वाजे हवामहे सखाय इन्द्रमूतये आघागमद्यतिस्रवः सहस्रिणीभिरूतिभिः वाजेभिरुपनो हवम् अनप्रत्नस्यौकासो हुवेतु विप्रतिन्दरम् यन्ते पूर्वम् पिता हुवे हम् त्वा वयम् विश्वपारासा स्महे पुरुहूत सखे वसोजऋतृभ्याः अस्माकम् शिप्रणीनाम् सोमपाः स्वपपाम्ना सखेवध्यन् सखीनाम् तथा तदस्तु सोमपाः सखेवध्यन् तथा कृणु यथा न पुष्पशीष्टये रेवतीर्नः स धमाद इन्द्रे सन्तु दुविवाजाः श्रुमन्तो याभिर्वदेम आघत्वा वान्मनात्तस्तो दृभ्यो धृष्णवियानः विणोरक्षन्न शक्योः आयद्धुवः सदक्रदपाकामम् जरित्रेणा विणोरक्षन्न सचीभिः सस्वदिन्नः पोग्रदद्भिर्जिगायनानदद्भिः स्वास्वदद्भिर्धनानि हिरण्यरथम् दंसना वांसनस्य निकासनघेतनोदात् आश्विनामस्वामत्येषाया दंसवीरया गोर्धस्वा हिरण्यवत् समानयोजनो हि वाम् रसोदस्रावमर्त्यः समुद्रे अश्विने जाते अभ्यस्य मूर्धनि चक्रम् रथस्य ये मधुः परिद्यामन्यदीयते तस्तमुषःकथ प्रिये भुजे मर्तो अमर्त्ये कन्नक्षसे विभावरि वयम् हिते अमन्मह्यापरागात् अश्वेन चित्रे अर्हि वन्देभिराग हिमाजेभिर्दुहितर्तिवः अस्मे रयम् निधारय